त्रयोदशोऽध्यायः अर्जुना उवाच प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च एतद् वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्तभिधीयते एतदयो वेत्ति तं प्राहु क्षेत्रज्ञ इति तदविद क्षेत्रज्ञं चापि मम विद्धि सर्वक्षेत्रेषु भारत क्षेत्र क्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम तत्क्षेत्रं यच्च जादृक्च यद्विकारी यतश्च जाद साचायो यत्प्रभावश्च तत्समासेन मे शृणु ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः महाभूतन्नहङ्कारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकञ्च पञ्चाचेन्द्रियगोचरः इच्छद्देशः सुखं दुःखं सङ्घातश्चेतनाधृते एतत् क्षेत्रं समासेन स्वविकारमुदाहृतम् अमानित्यमदम्भित्य महिंसाक्षान्तिरार्जवम् आचार्योपासनं शौचं स्थैर्यमात्मा विनिग्रह इन्द्रियार्थेषु वैराग्य मनहङ्कार एव च जन्म मृत्यु जराव्याधि दुःख दोषानुदर्शनम् अशक्तिरनभिष्यङ्ग पुत्रदार गृहादिषु नित्यञ्च समचित्यत्वा मिष्टानिष्टोपपत्तिषु मयि चानन्ययोगेन भक्तिराव्याभिचारिणी विविक्तदेशसेवित्या अरतिर्जनसंसदि अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतज्ज्ञानमिति प्रोक्त मज्ञानं जदतोऽन्यथा ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ज्ञात्वा अमृतमश्नुते अनादिमत्परं ब्रह्म न सत्तन्नाशदुच्यते सर्वतपाणिपादं तत् सर्वतो शीशिरोमुखं सर्वतस्तुतिमल्लोके सर्वमावृत्ततिष्ठति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् अशक्तं सर्वभृत्यैव निर्गुणं गुणभोक्ति च बहिरन्तश्च भूताना मचरं चरमेव च सूक्ष्मत्वात् तदभिज्ञेयं दूरस्थं चान्तिके च तत् अविभक्तं च भूतेषु विभक्तमिव च स्थितं भूतभर्ति च तज्ज्ञेयं ग्रसिष्णुपभविष्णु च ज्योतिषामपि तज्ज्योति स्तमश परमुच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विस्थितम् इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासत मद्भक्त एतदभिज्ञाय मद्भावायोपवाद्यते प्रकृतिं पुरुषं चैव विद्य नारी उभावपि विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजनगुणान् कारणं गुणसङ्गोष्य सदसदयोर्जन्मसु उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वर परमात्तेति च पुक्तो देहेऽस्मिन् पुरुषः परः या एवं वेत्ति पुरुषं प्रकृतिं च गुणैश्चः सर्वथा वर्तमानोऽपि नश्च भूयोऽभिजायते ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना अन्ये सङ्ख्येन योगेन कर्मयोगेन चापरे अन्येत्येव मजानन्त्य श्रुत्यन्येभ्य उपासते तेऽपि चाति तरन्त्येव मृत्युं श्रुतिपरायणा यावत् सञ्जायते किञ्चिद् सत्त्वं स्थावरजङ्गमं क्षेत्र क्षेत्रज्ञ संयोगाद् तद्विद्धि भरतर्षभम् समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं विनश्यत्स्व विनश्यन्तं यः पश्यति स पश्यति समं पश्यन् हि सर्वत्र समवस्थितमीश्वरं न हि नस्त्यात्मनात्मानं ततो जाति परं गतिं प्रकृत्यैव तु कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथात्मानः मकरताडं सपश्यति यदा भूतपृथग्भावमेकस्थमनुपश्यति तत एव च विस्तारं ब्रह्म सम्पद्यते तदा अनादित्वान् निर्गुणात्तात् परमात्मायमव्यय शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते यथा सर्वगतं सूक्ष्म्या दाकाशमनुपलिप्यते सर्वत्रावस्थितो देहे तथात्मानुपलिप्यते यथा प्रकाशयत्येक कृष्णं लोकमिमं रवे क्षेत्रं क्षेत्री तथा कृष्णं प्रकाशयति भारत क्षेत्रक्षेत्रज्ञयोरेव मन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षं च ये विदुर्जान्ति ते परम् ॐ तत्सत् इति श्रीमहाभारते शतसहस्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषदसु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः।